नमस्ते भगिनी. सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि. भवतु मे सदा. पठामि संस्कृतं नित्यं. वदामि संस्कृतं. ध्यायामि संस्कृतं सम्यक्. वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं. संस्कृतस्य सदा भक्तो. वन्दे संस्कृतमातरम्. वन्दे संस्कृतमातरम्. नमस्कारः. गतवर्गस्य पाठस्य किञ्चिदिव पुनःस्मारणं कृत्वा अद्यतनं पाठं पठामः. गतवर्गे प्रथमश्लोकः आनाकलोकपरिकीर्तितः इति, तत् पठामः. आनाकलोकपरिकीर्तितसच्चरित्रम् अत्रोपरुध्य रघुवंशपतेः कळत्रम् वैतानवे निजहितं पवमान्बन्धुं वस्त्रेण बन्धुमविनीत कथं यतेथाः. अत्र अन्वयं पश्यामः चेत् वदति अविनीत आनाकलोकपरिकीर्तितसच्चरित्रं रघुवंशपतेः कळत्रम् अत्र उपरुध्य वैतानवेदिजनितं पवमानबन्धुं बन्धुं वस्त्रेण बन्धुं कथं यतेथाः इति. सरलार्थः एवमस्ति, सीता अग्नितुल्या अस्ति. ताम् अग्नितुल्यां सीतां भवान् अत्र अनायासेन अत्र गृहीत्वा कारावासे भवान् यत् स्थापितवान् अस्ति तत् सर्वथा अनुचितं. भवतः कृते तद् महते अपायकराय भवति इति वदति. तत्र वैशिष्ट्यं किम् इत्युक्ते, यद् उपमां दर्शयति कविः, पवमानबन्धुं वस्त्रेण बन्धुम्, अग्नेः वस्त्रेण बन्धनं यथा अपायकरं, यः बन्धनं करोति तस्य कृते तथैव त्वद्विषये एतद् अपायकरं कर्म. किमर्थम् अग्निना सादृश्यम् इत्युक्ते सीता अग्नितुल्या पवित्रा अस्ति. पुनः अग्नितुल्या अस्ति इति उक्त्वा सा त्वां भस्मीकर्तुमपि समर्था, शक्ता अस्ति इति सूचयति. पुनः पवमानबन्धुम् इति पदस्य प्रयोगः अपि अत्र बहु सार्थकः प्रयोगः. यथा मरुत् वायुः अग्नेः सखा, अग्नेः ज्वलने वायोः योगदानं भवति. वस्तुतः मरुतं विना अग्निः एव न ज्वलति. तथैव अत्रापि अग्नितुल्या सीता अस्ति, तस्याः बन्धुः पवमानपुत्रः वायुपुत्रः अहमागतः, अहं तस्याः साहाय्यम् आचरामि इति इङ्गिततया कथयति हनुमान्. अग्रिमं श्लोकं पश्यामः. प्रेङ्खन्ती पिशिता शयार्णमुखे सौमित्रिपत्रिक्षतम् त्वद्गात्रं परितः पतत्त्रिपरिषच्छत्रच्छविमागमत् द्राक्पौलस्त्य पुलस्त्य वंशविलये सम्भाविते त्वत्कृते कान्तानां नयनान्तवान्तसलिलं मा भून्निवापोदकम्. रावणम् आञ्जनेयः तस्य कुलविषये स्मारयति. पुनः महान् पितृदोषः एव भवति, पितॄणां कृते जलदाता अपि तव वंशेन अवशिष्यते, तथा त्वम् इदानीं यत् कार्यं कुर्वन् अस्ति तद् कार्यं तव कुलमेव नाशयति, अतः एव पौलस्त्य कुलजात इति तं सम्बोधयति। पुनः अत्र एकं विषयं वदति, प्रेङ्खन्ति पक्षिगणः, यद् पतत्रिपरिषत् यत् भ्रमन् भवति उपरि, सः पक्षिगणः छत्रच्छविं आवहति, छत्रदशाम् आवहति इति। तत्र राजचिह्नं भवति किल श्वेतातपत्रं, श्वेतच्छत्रं यद्भवति तद् शुभसूचकं राजचिह्नं। यदा राजा बहिर्गच्छति तदा श्वेतच्छत्रं तस्य उपरि भवति, तद् गौरवस्य चिह्नं, शुभसूचकं राजचिह्नं भवति। किन्तु इदानीं यदि भवान् रणे, भवतः मरणं भवति, तदा गृध्रपक्षिणः तव मृतदेहस्य उपरि परिभ्रमन्ति। सा दशा, सः तत् दृश्यं कथं भवति? अमङ्गलसूचकम्, अभद्रं भवति इति। अतः एव छत्रदशा, चक्रवर्तिनः कृते यद् कीर्तिसूचकं राजचिह्नं श्वेतच्छत्रं भवति, तद् विपरीतं तव उपरि गृध्रपक्षिणाम् अमङ्गलं छत्ररूपं दृश्यं मा भूत्, तद् मा, तद् न भवेत्, तादृशं त्वम् इदानीमेव समाचर इति सूचयति। अग्रिमं श्लोकं पश्यामः, 50 श्लोकः। बद्धादरोऽपि परदार परिग्रहे त्वम् इक्ष्वाकुनायक कळत्रमनार्यमागाः, वाताशनोऽहम् इति किं विनतासु तस्य, श्वासानिलाय भुजगः स्पृहयालु तालुः। त्वं यद् कुर्वन् अस्ति तद् अकार्यमस्ति, कर्तुं योग्यं नास्ति। यथा सर्पः यद्यपि वाताशनः, वायुभुक् सर्पः, वायुं भुङ्क्ते, तथापि सर्पः किं गरुडस्य प्राणवायुं भोक्तुं, गरुडस्य समीपं तस्य श्वासोच्छ्वास भोक्तुम् इच्छामि इति किं सर्पः गरुडस्य समीपं गच्छति? नैव गच्छति। तथैव त्वं सर्पः इव, रामः गरुडः इव तव शत्रुः, तव अन्तकः अपि भवेत् अग्रे। तादृशस्य रामस्य समीपगमनं युद्धार्थं, सर्पस्य गरुडसमीपगमनम् इव तव आचरणं, तद् मा कुरु। शीघ्रं सीतादेवीं तस्याः भर्त्रे प्रत्यर्पय इति वदति अञ्जनेयः। एतावत् वयं दृष्टवन्तः, अद्यतनपाठं पश्यामः। पुनरपि अद्यापि अयं श्लोकः, 51 अत्रापि हनुमतः प्रबोधकवचनमेव, वार्निङ्ग्, त्वं यद् करोति तद् त्वं यद् करोषि तद् न उचिताय। अतः शीघ्रम् एतद् कार्यम्, एतस्मात् कार्यात् विरम्य रामस्य शरणं गच्छ इति वदति। नो चेत् किं भवति, रामस्य बाणः यः अस्ति सः सर्पः इव साक्षात् दयनं कृत्वा तव प्राणानेव पास्यति इति अस्मिन् श्लोके वक्ष्यति। श्लोकं पठामः। बाहुचन्दननिषङ्गकोटरात्
बाहुचन्दन निषङ्गकोटरात्
उद्धृतो रघुपते शरोरगः
उद्धृतो रघुपते शरोरगः
प्राणवायुम् अविनीततावकम्
प्राणवायुम् अविनीततावकम्
कालयापनम् अपास्य पास्यति
कालयापनम् अपास्य पास्यति
पदच्छेदं पश्यामः. बाहुचन्दननिषङ्गकोटरात् एकपदम्, उद्धृतः रघुपतेः शरोरगः, प्राणवायुम् अभिनीत तावकं, कालयापनम् अपास्य पास्यति. अत्र बहु सुन्दर रूपकं कविः दर्शितवान् अस्ति. सामान्य अर्थम् अहं प्रथमं बोधयामि, अनन्तरं वयं श्लोकं यदा पठामः तस्य भावः बहु सुन्दरतया. अत्र शब्दसौन्दर्यमपि तथैव सुन्दरमस्ति यथा अर्थसौन्दर्यम्. श्रीरामस्य बाहुः, भुजः, वृक्षः इव, वृक्षरूपभुजः, तत्सर्वं रूपकमेव. वृक्षे कोटरं भवति किल, तथैव भुजे किं कोटरम् अस्ति? तूणीरं, यत्र शराः, बाणाः भवन्ति, तूणीरः. तर्हि रामस्य वृक्षरूपभुजे कोटररूपतूणीरः अस्ति. तूणीरे किमस्ति? वृक्षस्य कोटरे सर्पः भवति. रामस्य भुजकोटरे किमस्ति? सर्परूपबाणाः सन्ति. यदा सः बाणः, सर्पबाणः डयित्वा त्वां प्रति आगच्छति, तव प्राणवायुं पातुं, तदा तव समीपे पलायनार्थं वा प्राणरक्षणार्थं वा समयः एव न भवेत्. कालयापनम् अपास्य इत्युक्ते कालविलम्बं विना झटिति तव प्राणान् सः बाणः पास्यति इति वदति. सुन्दरः श्लोकः. एतस्य प्रतिपदार्थं प्रथमं पश्यामः. बाहुचन्दननिषङ्गकोटरात्, बाहुः इत्युक्ते भुजः, चन्दनवृक्षः, चन्दनः इत्युक्ते वृक्षः, यत्र पुल्लिङ्गः भवति सः वृक्षः भवति. नपुंसकलिङ्गं भवति चेत् तद् फलं वा वृक्षस्य सामग्री. उदाहरणार्थम् आम्रम् इत्युक्ते आम्रफलम्, आम्रः इत्युक्ते आम्रवृक्षः. तथैव नारिकेलं फलं भवति, नारिकेलः वृक्षः भवति. तथैव चन्दनं, यद् सुगन्धिद्रव्यं, यद् वृक्षात् प्राप्यते, किन्तु चन्दनः इत्युक्ते वृक्षः. बाहुचन्दनः, बाहुरूप चन्दनवृक्ष, चन्दनरूप, चन्दनवृक्षरूप रामस्य बाहु चन्दनः. तत्र किमस्ति? निषङ्गरूप कोटररूपं निषङ्गमस्ति, तूणीरमस्ति. वृक्षस्य यत्र रन्ध्रं भवति, तथैव रामस्य भुजे बाहौ निषङ्गः अस्ति, बाणानां स्थापनार्थं तूणीरमस्ति. तस्मात् तूणीरात् उद्धृतः इत्युक्ते आकृष्टः, स्वीकृतः. रघुपतेः शरोरगः, श्रीरामस्य उरगरूपबाणः, सर्परूपबाणः. शरः उरगः इव, उरगः इत्युक्ते सर्पः. प्राणवायुं, तव प्राणवायुं, हे रावण, तव प्राणवायुं, प्राणान् अविनीत दुर्विनय, तावकं कालयापनम् अपास्य, त्वया कृतं कालविलम्बम् अपास्य, अवधूय दूरीकृत्य पास्यति, तव प्राणान् अपहरिष्यति सः बाणः. इदानीं पदानाम् अर्थः ज्ञातः, ततः आकाङ्क्षां वयं कर्तुं शक्नुमः. सम्बोधनम् अत्र किमस्ति? हे अविनीत, हे दुर्विनीत इति।
हेलो,
हरिओम, श्रूयते खलु?
श्रूयते।
अस्तु, क्रियापदमस्ति पास्यति, पिबति इत्यस्य भविष्यत्कालः। कः पास्यति? शरोरगः, शरः उरगः इव शररूप सर्परूप राम बाणः। कीदृशः शरोरगः? उद्धृतः, स्वीकृतः। कुतः उद्धृतः? बाहुचन्दन निषङ्गकोटरात्, बाहुमध्ये विद्यमान तूणीरात् स्वीकृतः शरः। कस्य बाहुचन्दन निषङ्गकोटरात्? रघुपतेः। निषङ्गः इत्युक्ते तूणीरम्। सः शरोरगः कं पास्यति? प्राणवायुं। कस्य प्राणवायुं? तावकं। तव किं कृत्वा पास्यति? अपास्य पास्यति। अपास्य इत्युक्ते दूरीकृत्य। अस् अस्यति इत्युक्ते क्षिपति। अप अस्यति दूरीकरोति, क्षिपति इति अर्थः। कम् अपास्य? कालयापनं, कालविलम्बं। त्वया क्रियमाणं करिष्यमाणं कालविलम्बं दूरीकृत्य पास्यति इत्युक्ते तव समयः एव न भवति आत्मरक्षणाय। तावत् वेगेन, तावता वेगेन रामबाणः त्वां हन्ति इति वदति। अस्य अन्वयं पश्यामः। अविनीत रघुपतेः बाहुचन्दन निषङ्गकोटरात् उद्धृतः शरोरगः तावकं प्राणवायु कालयापनम् अपास्य पास्यति। भावार्थः उद्धतमनः इति अत्र सम्बोधनम्। उद्धतमनाः इति प्रथमाविभक्तिरूपम् इत्युक्ते गर्वितः इति अर्थः। उद्धतमनः सकृत् श्रीरामः चन्दनरूप चन्दनतरुरूप भुजस्य कोटररूप तूणीरात् भुजङ्गरूपबाणम् आकृष्य त्वां लक्ष्यीकृत्य मोक्ष्यति चेत् सः घातकः बाणः अविलम्बेन एव तव प्राणान् अपहरिष्यति। अतः विवेकमाश्रय श्रीरामेण सह शत्रुं विमुञ्च। त्वं यदि शत्रुत्वं न त्यजसि तर्हि रामेण त्यक्तः बाणः त्वां मारयिष्यति एव इति अर्थः। व्याकरणं पश्यामः। बाहुचन्दन निषङ्गकोटरात्, बाहुः एव चन्दनः, यथा पूर्वम् उक्तं मया। चन्दनः इत्युक्ते चन्दनवृक्षः, रूपकं। बाहुः एव चन्दनः, बाहुचन्दनः। कोटरः एव निषङ्गः, निषङ्गः इत्युक्ते तूणीरः, कोटरनिषङ्गः। बाहुचन्दनस्य कोटरनिषङ्गः, बाहुचन्दनकोटरनिषङ्गः। तस्मात् बाहुचन्दन निषङ्गकोटरात्। शरोरग रगः, शरः उरगः इव, सर्पः इव। अग्रिमं श्लोकं पश्यामः। अग्रे वदिष्यति हनुमान् यत् रामस्य कृते तव मारणं लीला इव भवति, क्रीडा इव भवति। यतः तत्र उदाहरणद्वयं स्मारयति हनुमान् रावणम्। एकं तु मारीचं श्रीरामः हतवान्। द्वितीयं तव एव शत्रुः इत्युक्ते वाली पूर्वं तव मित्रमासीत् किन्तु वाली रावणमेव भायितवान् किल, रावणस्य वालितः भयम् आसीत्, अतः तादृशं वालिनम् अपि श्रीरामः मारितवान्। एवम् उभयोः अपि वधम् अनायासेन यः कृतवान् तस्य श्रीरामस्य बाण श्रीरामस्य शरणं गच्छ, नो चेत् तव एव तवापि सा एव गतिर्भवति या गतिः अनयोः द्वयोः आसीत्, तयोः मारीचस्य च वालिनः च। मायामृगे समरनाटकसूत्रधारे,
मायामृगे समरनाटकसूत्रधारे,
शाखामृगे च भवतः प्रतिकूलवाले,
शाखामृगे च भवतः प्रतिकूलवाले,
दृष्टोद्यमस्य रघुनायकसायकस्य,
दृष्टोद्यमस्य रघुनायकसायकस्य,
मुक्त्वा प्रणामकवचम्, कवचं किमन्यत्,
मुक्त्वा प्रणामकवचम्,
कवचं किमन्यत्।
प्रणामकवचम् इत्युक्ते रामं नमस्कुरु, रामस्य आश्रयं स्वीकुरु, तदेव तव कवचं। यथा वदन्ति किल, भक्तिः एव कवचं भवति भक्तानां, तत् कवचं भक्तं सर्वत्र रक्षति, तथैव राम प्रणामरूपकवचं स्वीकुरु। तत् कवचं विहाय अन्यत् कवचं किम् इत्युक्ते अन्यत् किमपि कवचं त्वां रक्षितुं नार्हति इति। किमर्थं? पूर्वमेव रामस्य शक्तिः परीक्षिता अस्ति। दृष्टोद्यमः, दृष्टः उद्यमः यस्य, यस्य पराक्रमः पूर्वमेव दृष्टः इत्युक्ते केवलं पोटेन्शियल्, पोटेन्शियलि रामः तव घातकः भविष्यति इति न, सः कृत्वा अपि दर्शितवान् अस्ति। किं कृत्वा दर्शितवान् अस्ति? मारीचसदृशं राक्षसं मारितवान् अस्ति, वालिसदृशं बहु पराक्रमशालिनम् अपि वानर मुख्यं हतवान् अस्ति, अतः तस्य पराक्रमः दृष्टपूर्वः अस्ति, अतः तस्मात् तस्य त्वं शरणं गच्छ, तं शरणं गच्छ इति वदति। अत्र पदच्छेदं पश्यामः, मायामृगे समरनाटकसूत्रधारे शाखामृगे च भवतः प्रतिकूलवाले दृष्टोद्यमस्य रघुनायकसायकस्य मुक्त्वा प्रणामकवचं, कवचं किम् अन्यत्। प्रतिपदार्थं पश्यामः, मायामृगे, मायामृगः कः? कपटहरिणः, कपटहरिणे, सः एव अस्य अग्रे भविष्यति किल, भविष्यतः युद्धस्य समरनाटकसूत्रधारः। इदानीम् अपि लघुयुद्धम् अभवत् कुत्र? अशोकवनिकायां, तथैव अग्रे त्वया सह श्रीरामस्य युद्धं भवति सीतायाः रक्षणार्थम्। एतस्य युद्धस्य आरम्भकर्ता, सूचनादायकः कः? मारीचः, अतः समरनाटकसूत्रधारः, सः एव आरब्धवान् अस्ति। यथा नाटके यदा पटः स्क्रीन् यदा यवनिका अपसृता भवति, तदा प्रथमं सूत्रधारः आगत्य एव नाटकस्य आरम्भम् उद्घोषयति, तथैव मारीचः एव अस्य रामलीला युद्धरूपलीलायाः सूत्रधारः, सः एव आगतवान् आरम्भे कपटहरिणवेषं धृत्वा। अतः समरनाटकसूत्रधारे मायामृगे इत्युक्ते मारीचे, मारीचे तस्मिन् श्रीरामबाणस्य पराक्रमः दृष्टः इति अर्थः। पुनः शाखामृगे, शाखामृगः कः? वानरः। कीदृशे वानरे? वालिनी, भवतः प्रतिकूलवाले, कीदृशः सः शाखामृगः वाली भवतः प्रतिकूलवाले. वालम् इत्युक्ते पुच्छम्. यस्य पुच्छं तव शत्रुभूतमस्ति तादृशं भवतः प्रतिकूलवाले. तव शत्रुभूतः पुच्छः यस्य, तादृशे वालि वालिनी दृष्टोद्यमस्य, परीक्षितपराक्रमः यस्य तादृशस्य. दृष्टोद्यमस्य इति पदं बाणस्य सायकस्य इति पदस्य विशेषणं. रघुनाथसायकस्य, रामबाणस्य, रामबाणस्य विशेषणं. यस्य पराक्रमः पूर्वमेव दृष्टः. कुत्र कुत्र दृष्टः? मारीचविषये दृष्टः, वालिविषये च दृष्टः तस्य पराक्रमः. तादृशं बाणं मुक्त्वा, मुक्त्वा इत्युक्ते तद् विहाय, तद् त्यक्त्वा इति अर्थः. तं बाणं विहाय प्रणामकवचं, नमस्काररूपं कर्म एव तव कवचं भवेत्. कवचं किम् अन्यत् इतरकवचेन तव रक्षणं कुतः इत्युक्ते नैव भवति तव रक्षणम् अन्येन केनापि कवचेन. रामनमस्काररूपं कवचमेव त्वां रक्षिष्यति इति वदति. अन्वयः, समरनाटकसूत्रधारे मायामृगे भवतः प्रतिकूलवाले शाखामृगे च दृष्टोद्यमस्य रघुनाथसायकस्य प्रणामकवचं मुक्त्वा अन्यत् कवचं किं? प्रणामकवचं त्यक्त्वा इति अर्थः. अत्र मुक्त्वा इत्युक्ते तद् विहाय, तद् ऋते, अस्मात् ऋते अन्यत् कवचं तव नास्त्येव. भावार्थः, हे रावण, रामाश्रयः एव तव रक्षाकवचम् इति अवगच्छ. यतः भावियुद्धस्य अग्रे यत् युद्धं भविष्यति तव च रामस्य च मध्ये, तस्य युद्धस्य सूत्रधारः कपटमृगः मारीचः रामबाणेन हतः. तथैव तव दमयिता वाली रावणं रावणस्य दमनं कृतवान् इति वयं जानीमः. वाली रावणमेव स्व भुजमध्ये धृत्वा त्रिलोकमपि अटित्वा आगतवान् इति वयं शृणुमः. सन्धिं कर्तुं यदा सन्धिं कृतवान् तदा. तथैव तव दमयिता वाली अपि रामशरेण व्यापादितः. व्यापादितः इत्युक्ते मारितः. एवं सति ऋते परीक्षितसामर्थ्यात् रामशरात्, रामशरं विहाय कृते पदेन सह पञ्चमी भवति. अतः परीक्षितरामसामर्थ्यात् रामशरात् ऋते किमन्यत् कवचं त्वां रक्षितुमर्हति? अतः सीतां प्रत्यर्प्य रामं प्रणतिपूर्वकम् आश्रय, प्रणामं कृत्वा आश्रय. अन्यथा तव रक्षणं नैव सेत्स्यति, तव रक्षणं न सिद्ध्यति एव इति वदति. अग्रिमं श्लोकं पश्यामः. एवं निशम्य कुपितः पिशिता शनेन्द्रः.
एवं विशम्य कुपितः पिशिता शनेन्द्रः.
प्राणान् अमुष्य हरतेति भटानवादीत्.
प्राणानमुष्ये हरत्तेति भटानवादीत्.
आजन्मशुद्धमतिरत्र विभीषणस्तम्.
आजन्मशुद्धमतिरस्त्र विभीषणस्तम्.
दूतो न वध्य इति शास्त्रगिरारुरोध.
दूतो न वध्य इति शास्त्रगिरारुरोध.
एतत् सर्वं श्रुत्वा रावणः अत्यन्तं कुपितः. सः किम् उक्तवान्? स्वभटान्, सैनिकान् उक्तवान्, एतं वानरम् अमुष्य प्राणान् हरत. एतस्य वानरस्य प्राणान् अपनयन्तु इत्युक्ते एतं मारयन्तु इति उक्तवान् भवन्तः। किन्तु तत्रैव रावणसभायां विभीषणः आसीत्, सः कीदृशः इत्युक्ते आजन्मशुद्धमतिः, निर्मलहृदयः, स्वभावतः एव सः निर्मलमनाः अस्ति। अतः तादृशः विभीषणः तं रावणं शास्त्रवचनेन निवारितवान्, शास्त्रवचनं स्मारयित्वा उक्तवान्, हे अग्रज, दूतः न वध्यः, दूतस्य मारणं न कार्यम् इति शास्त्रवचनेन तं निवारयामास। क्षणं यावत् तिष्ठन्तु, अहम् एकनिमेषे आगच्छामि। नमस्कारः, पदच्छेदं पश्यामः। एवं निशम्य कुपितः निशिताशनेन्द्रः प्राणान् अमुष्य हरत इति भटान् अवादीत्। आजन्मशुद्धमतिः अत्र विभीषणः तं दूतः न वध्यः इति शास्त्रगिरा रुरोध। प्रतिपदार्थं पश्यामः, एवं निशम्य। निशम्य इत्युक्ते श्रुत्वा, एवम् इत्युक्ते किं, पूर्वं हनुमान् यद्यद् वचनम् उक्तवान् रावणस्य पराक्रमस्य विषये, रामस्य पराक्रमस्य विषये, रावणस्य मूर्खता अविवेकपूर्णकार्यस्य विषये, तत्सर्वं श्रुत्वा निशम्य कुपितः पिशिताशनेन्द्रः, क्रुद्धः रावणः, पिशिताशनाः के राक्षसाः, पिशितं मांसम् अश्नन्ति इति पिशिताशनाः, तेषाम् इन्द्रः, तेषां राजा क्रुद्धः रावणः प्राणान् अमुष्य हरत इति। एतस्य अमुष्य इत्युक्ते अस्य, अदस् शब्दस्य लिङ्गस्य असौ अमु अमि इति अस्ति किल, तस्य षष्ठी एकवचनम् अमुष्य। एतस्य प्राणान् हरत, एतस्य प्राणान्, एतस्य वानरस्य प्राणान् अपनयत, मारयत एनम् इति। भटान् सैनिकान्, योद्धान् अवादीत्, उक्तवान्। वद् धातुः अद्यतन लु, भूतकाले अद्यतन लु। आजन्मशुद्धमतिः, एव निर्मलबुद्धिः सः, जन्मसिद्धः शुद्धमतिः इति अर्थः। अत्र अस्मिन् समये स्थाने वा तत्र उपस्थितः आसीत्, अतः तस्मिन् समये सः विभीषणः रावणानुजः तं भ्रातरं रावणं दूतो न वध्यः, वार्ताहरः न हन्तव्यः इति नयशास्त्र धर्मः अस्ति, दूतस्य वधः न करणीयः इति। अतः तं नयशास्त्रं, नीतिशास्त्रं स्मारयति, बोधयति। रावणः न जानाति इति न, किन्तु तस्मिन् समये कोपाविष्टः रावणः, अतः तं नीतिं स्मारयन् सः वदति, वार्ताहरः न हन्तव्यः इति शास्त्रगिरा, शास्त्रवचनेन रुरोध, निवारितवान्। आकाङ्क्षां पश्यामः, अवादीत्, उक्तवान्। कः अवादीत्? पिशिताशनेन्द्रः रावणः। किम् इति अवादीत्? अमुष्य प्राणान् हरत इति अवादीत्। कान् अवादीत्? भटान्, सैनिकान्। पिशिताशनेन्द्रः कथं भूतः सन्? एवम् उक्तवान्, कुपितः। किं कृत्वा कुपितः? एवं निशम्य, हनुमतः वचनम् आकर्ण्य श्रुत्वा। पुनः प्रथमवाक्यं, द्वितीयवाक्यमस्ति रुरोध। कः रुरोध? विभीषणः। कीदृशः विभीषणः? आजन्मशुद्धमतिः। कं रुरोध विभीषणः तं कया रुरोध दूतः न वध्यः इति शास्त्रगिरा। गीर् इति रेफान्त स्त्रीलिङ्गशब्दः, गीः गिरौ गिरः, तृतीय एकवचनं गिरा शास्त्रगिरा, अतः एव कया इति पदम् अत्र अन्वयः। एवं निशम्य निशिताशनेन्द्रः कुपितः सन् अमुष्यप्राणान् हरत इति भटान् अवादीत्। तत्र आजन्मशुद्धमतिः विभीषणः दूतः न वध्यः इति शास्त्रगिरा तं रुरोध। भावार्थः अस्ति हनूमतः प्रबोधनम् आकर्ण्य रुष्टः रावणः मारयत एनम् इति राक्षससैनिकान् आदिष्टवान्। तदा जन्मनः प्रभृति एव निर्मलमनाः विभीषणः दूतः न हन्तव्यः इति शास्त्रवतनं वचनम् उपदिश्य अग्रजं रावणं निवारितवान्। रावणः अविचिन्त्य साक्षात् आदिष्टवान्। तदा विचिन्त्य विवेकयुक्तः विभीषणः तं सद्वचनम् उपदिष्टवान्। इदानीं गद्यभागम् अद्यतन अन्तिमः भागः, तद् पठित्वा समापयामः। रावणः अपि विभीषणभाषणमङ्गीकृत्य
रावणोऽपि विभीषणभाषणम् अङ्गीकृत्य
प्लवङ्गानाम् अङ्गेषु लाङ्गूलम् एव वरम्
प्लवङ्गानाम् अङ्गेषु लाङ्गूलम् एव वरम्
तदेव कर्पासवाससा
तदेव कर्पासवाससा
संवीतं वह्निसात् कृत्य
संवीतं वह्निसात् कृत्य
चत्वरे चत्वरे दोषानुद्घोष्य
चत्वरे चत्वरे दोषानुद्घोष्य
प्रहारं नगरं परितः सञ्चारयत सञ्चारयत
सप्रहारं नगरं परितः सञ्चारयत
इति राक्षसान् आदिदेश
इति राक्षसान् आदिदेश
तेषु तथा कुर्वाणेषु
तेषु तथा कुर्वाणेषु।
अत्र किं वदति रावणः? हा अङ्गीकृतवान् झटिति विभीषणवचनम्। आम् सत्यं, दूतः न वध्यः, किन्तु किन्तु दण्ड्यः सः, दण्डयितुं योग्यः किल। अतः एतम् एतस्य पुच्छं वानरस्य पुच्छमेव शरीर अवयवेषु मुख्यम् अङ्गं भवति। यथा एकैकस्य प्राणिनः एकम् अङ्गं बहु मुख्यं भवति, यथा गजस्य मनुष्यस्य मुखमेव उत्तमाङ्गम् इति उच्यते। अतः एतस्य प्रियमपि वानरः स्वपुच्छं बहु इच्छति। तादृशं तादृशस्य अस्य वानरस्य लाङ्गूलं वह्निसात् कृत्वा अग्निना तद् ज्वालयित्वा संवीतं सम्यक् वस्त्रेण परिवेष्टितं कार्पासवाससा। वासः इत्युक्ते वस्त्रं, वासस्य शब्दः वाससा, वस्त्रेण संवीतं सम्यक् तस्य वस्त्रेण पुच्छस्य परिवेष्टनं कृत्वा तद् अग्निना प्रज्वाल्य किं करणीयं? भटाः तं नयन्तु सर्वत्र वीथिषु चत्वरे चत्वरे। चत्वरः इत्युक्ते मार्गाणां यद् इण्टर्सेक्षन् भवति किल, चत्वारः मार्गाः यत्र मिलन्ति एकत्र मध्ये, चत्वरे चत्वरे एतस्य स्थित्वा आञ्जनेयस्य एतस्य वानरस्य दोषान् उद्घोषयन्तु। अनन्तरं तं ताडयन्तु सप्रहारं, तस्य प्रहारं कुर्वन्तु। एवं नगरं परितः तस्य अटनं कारयन्तु इति रावणः स्वभटान् आदिष्टवान् इति अर्थः। अस्य प्रतिपदार्थं पश्यामः. रावणः अपि विभीषणभाषणम् अङ्गीकृत्य, विभीषणस्य हितवचनम् अङ्गीकृत्य, प्लवङ्गानाम् अङ्गेषु लाङ्गूलम् एव वरम्, किम् अङ्गीकृतवान्, दूतः न वध्यः इति अङ्गीकृतवान्. किन्तु अयं दूतः अवश्यं दण्ड्यः, दण्डयितुं योग्यः इति मनसि निधाय उक्तवान् प्लवङ्गानाम् अङ्गेषु. प्लवङ्गानाम् इत्युक्ते वानराणाम् अङ्गेषु, शरीर अवयवेषु लाङ्गूलं पुच्छम् एव वरं, श्रेष्ठम् अङ्गं, प्रियम् अङ्गम् इति अर्थः. तदेव तत् पुच्छमेव, तदा एव इति न अत्र दोषः, तदेव तत् पुच्छमेव कार्पासवाससा. कार्पासवाससा इत्युक्ते वस्त्रेण, कार्पासवस्त्रेण, काटन् कार्पासवस्त्रेण संवीतं, सम्यक् परिवेष्टितं, पुच्छं परितः वस्त्रबन्धनं कुर्वन्तु इति आदिष्टवान्. तत् संवीतं पुच्छं वह्निसात् कृत्य अग्निना प्रज्वाल्य चत्वरे चत्वरे अस्य दोषान् उद्घोष्य वीथिषु, प्रतिवीथि तत्र गत्वा यत्र जनाः सम्मिलन्ति तन्मध्ये, वीथिमध्ये स्थित्वा अस्य दोषान् उच्चैः उद्घोषयन्तु, अस्य अपराधान् जनान् श्रावयन्तु, सप्रहारं पुनः एतं ताडयन्तु च. एवं नगरं परितः, लङ्कानगरं परितः सञ्चारं कुर्वन्तु एतं नीत्वा इति राक्षसान् आदिदेश. भावार्थः अस्ति रावणः अपि दूतः अवध्यः इति विभीषणवाक्यम् अङ्गीकृतवान्. ततः वानराणाम् अवयवेषु पुच्छः एव प्रधानम्, अतः कार्पासवस्त्रेण वेष्टितं तस्य पुच्छम् अग्निसात् कृत्वा ज्वलत् पुच्छं तं वानरम् इत्युक्ते ज्वलत् पुच्छं यस्य सः, ज्वलत् पुच्छः वानरः, तादृशं ज्वलत् पुच्छं वानरं वीथिषु नयन्तः तस्य अपराधान् उद्घोषयन्तः तं ताडयन्तः च यूयं नगरं परितः तस्य अटनं कारयत इति राक्षसान् आदिष्टवान् रावणः. एतावत्पर्यन्तम् अद्य दृष्टवन्तः वयम्, अग्रिमगुरुवासरे अनुवर्तयामः. नमो नमः, शान्तिमन्त्रेण समापयामः. सर्वे भवन्तु सुखिनः,
सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्.
शान्ति शान्ति शान्तिः.